तद्देवस्य स पितुर्वार्यम् महद्वृणीमहे असूरस्य प्रचेदसः छद्र्येण दासुषे यच्छदित्मना तन्नो महा उदयान् देवो अद्युभिः दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गम् द्रापिम् प्रति मुञ्जते कविः विचक्षणः प्रचयन्नावृणन्नुर्वजीनरत्सविता सुम्नमुख्यम् आप्राजाम् श्रीव्यालिपार्थिवा श्लोकम् देवः कृणुते स्वायधर्मणे प्रबाहु अस्रात्सविता सवीमनि निवेशयन् प्रसुवन्नत्युभिर्जगत् अदाभ्यो भुवनानि प्रजाकसद्व्रतानि देवः स पिताभिरक्षते प्रास्राग्बाहु भुवनस्य प्रजाभ्यो धृतम् व्रतो महो अध्वस्य राजति क्षम् सवितामहि त्वरात्रीलांसि परिभूस्त्रीणि रोचना तिस्रो दिवः पृथिवीस्तिस्रयन्वतिस्रजर्वतैरभिनो रक्षदित्मना बृहत्सम् न प्रसवीता निवेश नो जगतस्थातुर्भयश्रयो वशी नो देवस्य पिता सन्न यच्छ त्वस्मेक्षयाय त्रिवरूथमम् रसः आगन् देवऋतुभिर्वर्ध दुःखयम् दधातु नः स पिता स्वप्रजामिषम् स नः क्षराभिरहभिश्च जिन्वतु प्रजावन्तम् रजिमस्मे समिन्वतु